रुद्रध्यानम् ॐ अस्य श्रीरुद्राध्याय प्रश्नमहामन्त्रस्य अघोरऋषिः अनष्टोच्छन्दः शङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषस्य एष रुद्रो देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्ब सदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः अग्निहोत्रात्मने अङ्गुष्टाभ्यान्नमः दर्शपूर्णमासात्मने तर्जनेभ्यान्नमः चातुर्मास्यात्मने मध्यमाभ्यान्नमः रूढपशुबन्धात्मने अनामिकाभ्यान्नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्यान्नमः सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यान्नमः अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिखायै वषटे हिरूढपशुबन्धात्मने कवचायुः ज्योतिष्टोमात्मने नेत्रत्रयाय वौषटे सर्वक्रत्वात्मने अस्त्राय भटे दोर्भुवस्वरमिति दिग्बन्धः ध्यान आपादालभस्तलान्दभुवनब्रह्माण्डमाविस्फुरज्योतिःस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्दामृतेः हस्तोकाप्लुतमेकमीशमनिशम् रुद्राणुवाकाञ्चपन्ध्याये दीप्सितसिद्धये द्रुपपदम् विप्रो विषञ्जे शिवा सञ्च मे मयश्च मे प्रियञ्च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणञ्च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वञ्च मे महश्च मे संविश्च मे ज्ञात्रञ्च मे सोश्च मे प्रसोश्च मे शीरञ्च मे लयश्च मृतञ्च मे मृदञ्च मे यक्ष्मञ्च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वञ्च मे नमिन्द्रञ्च मे भयञ्च मे सुखञ्च मे सगनञ्च मे सोषा च मे सुदिनञ्च मे ॐ शान्तिः शान्तिः शान्तिः।